एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। भारतेन अपरेशन सिन्दूर इति नाम प्रदाय विहितस्य सैन्याक्रमणस्य अन्तर्गतम् पाकिस्तान देशस्य नवसु स्थानेषु प्रक्षेपास्त्र प्रहारः विहितोऽस्ति। भारतीय रक्षा मन्त्रालयस्य अनुसारेण तेभ्यः सर्वेभ्यः स्थानेभ्यः भारते आतंकवादिनाम् आक्रमणानाम् योजना निर्देशनानि च जायमानानि आसन्। प्रहारोऽयम् अप्रेल मासस्य द्वाविंशे दिवसे भारत नियन्त्रिते कश्मीर राज्ये आक्रमणस्य पश्चात् विहितोऽस्ति, यत्र षड्विंशतिः पर्यटकाः मृताः आसन्। भारतेन तस्य आक्रमणस्य दोष पाकिस्तान देशे आरोपितोऽस्ति। भारतस्य रक्षा मन्त्रालयेन प्रकाशितायम् विज्ञप्तौ प्रक्षेपास्त्र प्रहारोऽयम् पूर्णतः लक्ष्यकेन्द्रितः आसीत्। अत्रान्तरे पाकिस्तान देशस्य प्रधानमन्त्रिणा शहबाज शरीफ इत्यनेन भारतस्य प्रहाराय युद्धस्य कृते प्रोत्साहनम् अस्तीति उक्त्वा कठोरेण भर्सितो वर्तते। अत्रान्तरे संयुक्त राष्ट्रसंघेन पक्षद्वयमेव संयमताम् अवलम्बितुम् अनुरुद्धमस्ति। राष्ट्रसंघेन आणविक शक्ति राष्ट्रद्वयस्य मध्ये सम्भावितं युद्धं विश्वस्य कृते अत्यन्त भयावहं भवितुं शक्नोतीति उक्तं वर्तते। प्रतिनिधिसभायाः उपवेशे आगामिनः आर्थिक वर्षस्य सर्वकारस्य वार्षिक नीति कार्यक्रमान् आधृत्य विमर्शनं सञ्चलदस्ति। ह्यस्तनोपवेशे विमर्शने सहभागिभिः सत्तापक्षीय दलानां सांसदैः सर्वकारेण नीति कार्यक्रमाणां माध्यमेन आनीताः विषयाः समीचीनाः सन्तीति चर्चयन् सन्तीति उक्त्वा प्रभावपूर्णस्य आयव्ययस्य व्यवस्थाय क्रियान्वयनाय च बलं दत्तमासीत्। प्रतिपक्षदलानां सांसदैः नीति कार्यक्रमेषु राष्ट्रनिर्माणस्य कृते सुदृढाः आधाराः न सन्ति, समृद्धो नेपाल सुखिनो नेपालिनश्चेति संकल्पस्य कृते योजनाबद्धाः कार्यक्रमाः न समाविष्टाः, केवलं पुरातनानां कार्यक्रमाणां नैरन्तर्यमस्तीति आरोपितं वर्तते। विमर्शने नेपाली कांग्रेस दलस्य धनराज गुरूङ, नेकपा एमाले दलस्य योगेश भट्टराई, नेकपा माओवादी केन्द्रस्य देवेन्द्र पौडेलः, राष्ट्रिय स्वतन्त्र दलस्य डाक्टर स्वर्णिम वाग्ले, राष्ट्रिय प्रजातन्त्र दलस्य ज्ञान बहादुर साई च स्वकीयां धारणां व्यक्तवन्तः। सांसदाः नीति कार्यक्रमेषु प्रस्तुतानां कार्यक्रमाणां क्रियान्वयनाय विशेषेण बलं प्रदाय पर्यटन जलस्रोत कृषि विकासादि कार्यक्रमेषु आयव्ययकं केन्द्रितं विधातव्यम् इत्यत्र च बलं दत्तवन्तः। तत्पूर्वं प्रतिनिधिसभाया उपवेशे सांसदा पूर्वाधार निर्माण विषयेषु सामयिक विषयेषु च सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। उपवेशस्य प्रारम्भे सभामुखेन सह समयं याचित्वा सांसदः रंजिता श्रेष्ठ वैशाख मासस्य सप्तदश दिवसे पूर्व सांसदस्य रेशम चौधरिणः निग्रहण विषये निष्पक्षम् अनुसन्धानार्थं चौधरिणा सह विहितस्य व्यवहारस्य विषये सार्वजनिकरूपेण प्रत्युत्तरं दातुं च सर्वकारं याचितवती। उपवेशस्य शून्य विशेष समयो च सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सभामुख देवराज घिमिरे संसदे विभिन्नेषु समयेषु उत्थापितानां विषयाणां प्रत्युत्तरं दातुं सर्वकारं निर्दिष्टवान् अस्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे जनमतदलस्य सांसदैः दलस्य संरक्षकं रेशम चौधरिणं निगृह्य कारागार प्रेषणस्य विषये सर्वकारस्य प्रत्युत्तरम् अभियाच्य उत्थाय विरोधस्य करणानन्तरं सभामुख घिमिरे सर्वकारम् एवं निर्दिष्टवान् वर्तते। सभामुख घिमिरे अस्यैव वैशाख मासस्य पञ्चविंशे दिवसे उपवेक्षमाणे उपवेशे गृहमन्त्री लेखक घटनाया विषये संसदि प्रत्युत्तरं दास्यतीति ज्ञापयन् सदनस्य कार्यम् अग्रे वर्धयितुम् अनुरोधवान् आसीत्। राष्ट्रिय सभाया ह्यस्तनोपवेशे सांसदा नीति कार्यक्रमै स्थिरार्थिक विकासस्य लक्ष्यं गृहीतमस्ति इति उक्तवन्तः सन्ति। उपवेशे आगामिनः आर्थिक वर्षस्य कृते प्रस्तुता नीति कार्यक्रमान् आधृत्य विहिते विमर्शने सहभागिनः सांसदा सर्वकारेण प्रस्तुतैः नीति कार्यक्रमैः जनतायाम् आशायाः सञ्चारः सम्भूतोऽस्ति, विकासस्य संरचनानां स्वरूपस्य परिवर्तनस्य संकल्प गृहीतोऽस्ति इति च अगदन्। उपवेशे सांसदै नीति कार्यक्रमै सुशासनम स्थापयितुम् उच्चार्थिक वृद्धिम् जनापेक्षाम् सम्बोधयितुम् च सक्षते इत्युक्त्वा सदने विमर्शनस्य क्रमे प्राप्तानि परामर्शनानि अनुकूलरूपेण गृहीत्वा संशोधनाय अनुरोधमासीत्। उपवेशे राष्ट्रिय सभाया अध्यक्ष नारायण प्रसाद दाहाल सदने प्रस्तुतान् सर्वकारस्य आगामिना आर्थिक वर्षस्य नीति कार्यक्रमान् आदृत्य संचल्यमानं विमर्शनम् सम्पन्नम् नास्ति तथा आगामिनि उपवेशेऽपि क्रमोऽयम् नैरन्तर्येण चलिष्यति। प्रधानमन्त्रिणा केपी शर्मा ओलिना उत्थापितानां प्रश्नानाम् उत्तरस्य प्रदानत्वेन कार्यसूची निर्धारिता स्थिति च असूचयत। राष्ट्रिय सभायाः अपरोपवेश अस्यैव वैशाखस्य सप्तविंशे दिवसे दिवा एकवादने वस्ता। नेकपा एमाले दलस्य नेता पूर्व मन्त्री च प्रदीप नेपालः ह्य एकसप्ततितमे वयसि दिवंगतो वर्तते। कति व्यस्त वर्षेभ्य पार्किन्सन नामकेन स्नायु सम्बद्धेन रोगेण ग्रस्तस्य नेपालस्य ह्य एकसप्ततितमे वयसि काष्ठमण्डपवर्तिनी नाभिक चिकित्सालये निधनं सम्भूतं वर्तते। तात्कालिकस्य प्रधानमन्त्रिण मनमोहन अधिकारिणः नेतृत्वे संघटिते सर्वकारे नेपालः सूचना संचार मन्त्री आसीत्। तदनु स्वर्गीयेण नेपालेन जलस्रोत मन्त्रित्वेन शिक्षा मन्त्रित्वेन च कार्यं विहितम् आसीत्। स्वर्गीयस्य नेपालस्य सूचना संचार मन्त्रिणः समये एकपञ्चाशदुत्तर द्विसहस्रतम वैक्रमाद्य रेडियो नेपाले संस्कृत भाषायां समाचार प्रारब्ध आसीत्। स्वर्गीयस्य नेपालस्य ह्य एव आर्यघट्टवर्तिनी वैद्युत शवदाह गृहे अन्त्येष्टि कार्यं विहितं वर्तते। अत्रान्तरे पूर्वमन्त्रिणः नेपालस्य निधनं प्रति प्रधानमन्त्रिणा केपी शर्मा ओलिना दुःखं व्यक्तं वर्तते। सामाजिक सञ्जालस्य माध्यमेन ह्य प्रधानमन्त्रिणा ओलिना पूर्वमन्त्रिणं नेपालं प्रति भावपूर्ण श्रद्धाञ्जलिम् अर्पयता शोकाकुल परिवारजनेषु समवेदना च प्रकटितेस्त। एवमेव सभामुखेन देवराज घिमिरे विदेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च समवेदना प्रकटिता वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति संविधानस्य भावनायाः अनुसारेण नागरिकाणां स्वास्थ्य समानाधिकारं प्रापयितुं स्वास्थ्यसेवायाः गुणस्तरं वर्धयितुं च ध्यानं केन्द्रीकर्तव्यम्। चिकित्सा विज्ञान राष्ट्रिय प्रतिष्ठानस्य त्रयोविंश वार्षिकोत्सव समारोहे राष्ट्रपति पौडेलः संविधानेन नेपाली नागरिकेषु स्वास्थ्य शिक्षा प्रवृत्तिनाम् आवश्यक विषयाणां व्यवस्थायाः प्रत्याभूते सुनिश्चिता स्थिति विषयस्य मननस्य आवश्यकता वर्तते इति उदैरयत्। राष्ट्रपति पौडेलः चिकित्सकानां विदेशगमनस्य क्रमस्य वर्धनं चिन्तायाः विषयोऽस्तीत्यतः कार्यमेतत् अवरोद्धुं सम्बद्धपक्षेण प्रयासकरणस्य आवश्यकतां दर्शितवान्। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः देशे स्वास्थ्य जनशक्तेः अभावः विद्यमानः सन्नपि चिकित्सकान् स्वदेशे एव रोद्धुं समाह्वयो वर्तते इति अगदत्।